ते नखलु पुनः पुनः समयेनायुष्मान्
समयेनायुष्मान्
सुभूतिः तस्यामेव पर्षदि सन्निपतितो भूत्सन्निषण्णः भूत्सन्निषण्णः अथ खलु आयुष्मान् सुभूतिः उत्थाय आसनात् एकां समुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलम् पृथिव्यां प्रतिष्ठाप्य येन भगवान् तेनाञ्जलिं प्रणम्य भगवन्तम् एतदवोचत् आश्चर्यं भगवन् परमाश्चर्यं सुगत यावदेव तथागतेन अर्हता सम्यक् सम्बुद्धेन बोधिसत्त्वा महासत्त्वा अनुपरिगृहीताः परमेणानुग्रहेण आश्चर्यं भगवन् यावदेव तथागतेनार्हता सम्यक् सम्बुद्धेन बोधिसत्त्वा महासत्त्वा परीन्दिता परमया परीन्दनया तत्कथं भगवन् बोधिसत्त्वयान संप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा स्थातव्यं कथं प्रतिपत्तव्यं कथं चित्तं प्रग्रहीतव्यम् एव मुक्तं भगवान् आयुष्मन्तं सुभूतिम् एतदवोचत् साधु साधु सुभूते एवमेतत्सुभूते एवमेतद्यथा वदसि अनुपरिगृहीताः तथा गतेन बोधिसत्त्वा महासत्त्वा परमेणानुग्रहेण परीन्दिताः तथा गतेन बोधिसत्त्वा महासत्त्वा परमया परीन्दनया तेन हि सुभूते शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्येऽहं ते यथा बोधिसत्त्वयानसंप्रस्थितेन स्थातव्यं यथा प्रतिपत्तव्यं यथा चित्रं प्रग्रहीतव्यं चित्तं प्रग्रहीतव्यं एवं भगवन् इत्यायुष्मान् सुभूतिर् भगवतः प्रत्यश्रौषीत्।